एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तुत्री रत्नावली शर्मा। प्रतिनिधि सभायां ह्यस्तनात् दिवसात् आगामिनः आर्थिक वर्षस्य कृते विनियोजन विधेयकस्य सिद्धान्तं प्राथमिकता साधृत्य विमर्शनं प्रारब्धमस्ति। विमर्शने नेपाली कांग्रेस दलस्य ज्ञानेन्द्र बहादुर कार्की, नेकपा एमाले दलस्य गोकर्ण विष्ट, माओवादी केन्द्रस्य शक्ति बहादुर बस्नेत, रासोपा दलस्य मनिष झा, राप्रपा दलस्य ज्ञानेन्द्र बहादुर शाही, जनता समाजवादी दलस्य रंजु कुमारी झा, जनमत दलस्य अब्दुल खान श विनियोजन विधेयकस्य सिद्धान्तान् प्राथमिकता साधृत्य स्वकीयां धारणां व्यक्तवन्तः। एतत्पूर्व प्रतिनिधिसभाया ह्यस्तनोपवेशे सांसदा विकास निर्माणस्य योजनां पूरयितुम् आयव्ययिकम् आनेतव्यम्, संविधाने लिपिबद्धानां व्यवस्थानां क्रियान्वयने बलं दातव्यं चेति उक्तवन्तः। उपवेशस्य विशेष समये नेपाली कांग्रेस दलस्य दीपक गिरी, नेकपा एमाले दलस्य जुली कुमारी महतो, माओवादी केन्द्रस्य रणेन्द्र बराइली, अन्य सांसद रामप्रकाश चौधरी, रंजिता श्रेष्ठ, प्रेम सुवाल, चित्रबहादुर केसी, प्रभु शाह, सरस्वती बजिमय, नारायण प्रसाद आचार्य स्वकीयां धारणां व्यक्तवन्तः। प्रतिनिधिसभाया ह्यस्तनोपवेशस्य आकस्मिक समये वर्षायामस्य प्रारभणेन सहैव देशस्य विभिन्नेषु स्थानेषु भूस्खलनानां जलविप्लवस्य च संकट वर्धिष्यते इत्यत्र सावधानताम् अवलम्बितुम् सांसदः सर्वकारस्य ध्यानाकर्षणं विहितवन्तः। सांसदः गतवर्षस्य आश्विनमासे दूरापन्नेन जलविप्लवेन प्राप्तक्षेत्रीणां संरचनानां पुनर्निर्माणकार्यम् अधुनापि सम्पन्नं नास्तीत्यतः अस्मिन्वर्षे एतादृशावस्थायाः पुनरावृत्तिर्न स्यादित्यतः आवश्यकं पूर्वकार्यं विधातुं बलं दत्तवन्तः। राष्ट्रसभाया ह्यस्तनोपवेशे सांसद आयव्ययिकस्य निर्माणस्य क्रमे संसद भूमिकां वर्धयितुं सांसदानां परामर्शनानां समावेशनाय बलं प्रदत्तमस्ति। आगामिनः आर्थिक वर्षस्य कृते प्रस्तावितान् विनियोजन विधेयकस्य सिद्धान्तान् प्राथमिकतान् च आधृत्य पूर्वेद्युः विहितस्य विमर्शनस्य क्रमे सांसद उपवेशे उत्थापितान् विषयाणां सम्बोधनत्वेन आयव्ययिकं निर्मातुम् अयाचन्त। उपप्रधानार्थमन्त्रिणा विष्णुप्रसाद पौडेलेन संसदि प्रस्तुतान् आगामिनः आर्थिक वर्षस्य आयव्ययिकस्य सिद्धान्तान् प्राथमिकतास्य आधृत्य विहिते विमर्शने सांसदः विमर्शनाय पर्याप्तस्य समयस्य कृते न्यूनतोऽपि मासत्रयात् पूर्वमेव सर्वकारेण वार्षिकनीति कार्यक्रमः आयव्ययिकस्य सिद्धान्तः प्राथमिकता च सदने प्रस्तुतव्यः इति बलं प्रादुः। एवमेव विमर्शनस्य क्रमे सांसदः आयव्ययिकीकरस्य परिधेः विस्तारस्य, मितव्ययितालम्बनस्य, आन्तरोत्पादनस्य वर्धनं कृत्वा वृत्त्युपार्जनानां सर्जनाय योगदान प्रदानस्य च कार्यक्रमेभ्य प्राथमिकता प्रदातव्येति अवोचन्। तत्पूर्वम् उपवेशस्य शून्यसमये सांसदः निर्माणाधीन विकास निर्माणस्य योजना समये एव सम्पादयितुं सर्वकारस्य ध्यानाकर्षणं वेदधु। राष्ट्रसभाया अपरोपवेशः अद्य दिवासपादैकवादने वस्ता। सर्वकारेण आगामिनः ज्येष्ठमासस्य द्वितीय दिवसात् चतुर्थं दिवसं यावत् काष्ठमण्डपे आयोक्ष्यमाणे सगरमाथा संवादे विभिन्नानां देशानां पञ्चसप्तत्युत्तरैकशतसंख्याताः वैदेशिकाः अतिथयः सहभागिनो भविष्यन्ति। सगरमाथा संवादस्य विषये ज्ञापयितुं ह्यः परराष्ट्र मन्त्रालये आयोजिते पत्रकार सम्मेलने द्वादशेभ्य देशेभ्य उच्चस्तरीय प्रतिनिधिमण्डलैस्सह एकषष्टितोप्यधिकानां विकास सहायता संस्थानां, विश्वविद्यालयानां, शोधकेन्द्राणां, नागरिक समाजस्य, सर्वकारीयेतर संस्थानां च सहभागिता भविष्यति इति ज्ञापितं वर्तते। पत्रकार सम्मेलने परराष्ट्रमन्त्री डा आर्जु राणा देउवा विश्वव्यापिषु विषयेषु नेपालस्य प्रतिबद्धतां प्राकटय्य सहयोगस्य सहकारितायाश्च विकासं कृत्वा विश्वव्यापिनीं छविम् औचित्यपूर्णरूपेण स्थापयितुं सगरमाथा संवादः महत्वपूर्णो भविष्यति इति विश्वासं व्यक्तवती। परराष्ट्रमन्त्री डा राणा सगरमाथा संवादः न केवलं नेपालस्य कृते प्रत्युतः सर्वेषां कृते विश्वव्यापि मञ्चत्वेन महत्वपूर्णः अवसरो भविष्यति इति अगदत्। त्रिदिवसात्मके संवाद कार्यक्रमे बहुपक्षीयाणां विमर्शनानां निष्कर्षमाधृत्य काष्ठमण्डप घोषणापत्रं प्रकाशयिष्यते इति च परराष्ट्रमन्त्री डा राणा सूचितवती। प्रधानमन्त्रिणा केपी शर्मा ओलिना बालाजुवर्तिन्याः नेपाल चलचित्र विकास समितेः भूम्याः अपचलनस्य सम्बन्धे दशदिनानाम् अभ्यन्तरे अनुसन्धानं कृत्वा प्रतिवेदनं प्रस्तुतुं निर्दिष्टम् अवर्तते। बालुवाटारवर्तिनि प्रधानमन्त्री निवासे पूर्वेद्युः चलचित्र विकास समित्या आयोजिते कार्यक्रमे प्रधानमन्त्री ओली तत्र सहभागिनं संचार सूचना प्रविधि मन्त्रिणं पृथ्वी सुब्बा गुरुङ इत्यमुं संचार मन्त्रालयस्य सचिवं राधिका अर्यालश्च एवं अनुसन्धानाय निर्दिष्टवान् वर्तते। अधिकार दुरुपयोगानुसन्धानायोगेन बारा जनपद पत्राचार सेवा कार्यालयस्य तात्कालिक कार्यालय प्रमुखेण जयलाल प्रसाद शाहकानु इत्यनेन सहितानां षण्णां जनानां विरुद्धे सार्वजनिक सम्पदि हानिं कृत्वा भ्रष्टाचार विहित इत्यारोपे विशेष न्यायालये आरोपपत्रं पञ्जीकारितमस्ति। आयोगेन षष्ट्युत्तर द्विसहस्रतमात् विक्रमवर्षात् पत्राचार विभाग वित्तकोषस्य दायित्वं स्वीकृतवद्भिः जनैः संशयं कुर्वतां जनानाम् अभिलेखं विनैव धनस्य अपचलनं विहितमिति अनुसन्धानस्य क्रमे लब्धमस्तीत्यतः अभियोगपत्रं पञ्जीकारितमस्तीति ज्ञापितं वर्तते। बारा जनपद पत्राचार कार्यालयस्य तात्कालिक प्रमुख जयलाल प्रसाद शाहकानु अदालत प्रसाद कुर्मी बुन्नी प्रसाद यादव सुरेन्द्र प्रसाद यादव सुजितक सुमार शाह तात्कालिक नायब सुब्बा पदीय बलिराम प्रसाद कुर्मी इत्यतः जनैः पञ्चकोटिभ्य पञ्चत्रिंशत् लक्षभ्यश्चाधिकानां रूप्यकाणाम् अपचलनं विहितमिति आयोगस्य अभियोगो वर्तते। वैदेशिक वृत्त्युपार्जनाय विदेश प्रेषणस्य व्याजेन एकपञ्चाशल्लक्षाणि नवतिः सहस्राणि च रूप्यकाणि प्रवञ्चितानीति आरोपे प्रहरिणा ह्य जनद्वयं निगृह्य सार्वजनिकृतं वर्तते। निगृहितयोः वर्दिया जनपदस्य ठाकुरबाबा नगरपालिकायाः पञ्चत्रिंशद् वर्षीयः प्रेमबहादुर साउद सुर्खेत जनपदस्य सिमता ग्रामपालिकायाः अष्टम वडा क्षेत्रस्य एकविंशति वर्षीयः ललित बोहराचस्त इति काष्ठमण्डप उपत्यकापराध सन्धान कार्यालयस्य सूचनाधिकारी प्रहरी उपरीक्षकस्य काजीकुमार आचार्यः सूचयत्। निगृहितयोः साउद इत्यनेन जनत्रयम् आयरलैंड देशं प्रेषयिष्यते इत्युक्त्वा एकचत्वारिंशत् लक्षाणि नवति सहस्राणि च रूप्यकाणि बोहरा इत्यनेन बेलायत देशं प्रेषयिष्यते इत्युक्त्वा दशलक्षाणि रूप्यकाणि प्रवञ्चितानि सन्तीति ज्ञातं वर्तते इति प्रहरिणा ज्ञापितमस्ति। सूचना प्रविधेः सावधानतया प्रयोग विधेये इति सम्बद्धै पक्षै बलं दत्तमस्ति। राष्ट्रिय महिला आयोगेन ह्य काष्ठमण्डपे आयोजितायाम् अन्तर्क्रियायाम् सूचना प्रविधेः कारणेन मानसिकानि आर्थिकानि च बहूनि कष्टानि सोढव्यानि सन्तीत्यतः सावधानतया तेषाम् प्रयोगे बलं दत्तमस्ति। हेटौडा काष्ठमण्डपस्य प्रमुख वैकल्पिक कुलेखानि कलंकी हुमाने मार्गखण्डः ऊनविंशम् दिवसम् यावत् पिधापयिष्यते। मकवानपुर जनपद प्रशासन कार्यालयेन सूचनां प्रकाश्य ज्येष्ठ मासस्य द्वितीय दिवसात् विंशम् दिवसम् यावत् मार्गेऽस्मिन् यातायात साधनानाम् अवरोधाय निर्णीतम् वर्तते। अवरुद्ध वीपी राजमार्गः षोडश घण्टानां पश्चात् पुनः संचालितो वर्तते। काभ्रे जनपदस्य रोशी ग्रामपालिकायाः द्वादश वडा क्षेत्रस्य मान्तिस्थाने रोशी नद्याः जलविप्लवेन पथान्तरणस्य मार्गस्य प्रवाहनानन्तरं वीपी राजमार्गः परह्य अवरुद्ध आसीत् इति समाचारः।